नमस्सर्वेभ्यः अद्य कृदन्तवर्गस्य सप्तमः पाठः मे मासस्य षष्ठः दिनाङ्कः अद्य वयं नुल् प्रत्ययस्य परिचयं प्राप्नुमः मङ्गलेन आरम्भं कुर्मः योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमम् शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो आदौ किञ्चित् पुनरावर्तनम् कुर्मः आरम्भतः यथा दृष्टम् धातुः प्रकृतिः भवति धातोः कृत् संज्ञकानां प्रत्ययानां योजनेन कृदन्तम् अथवा कृदन्तशब्दः भवति एतच्च प्रातिपदिकं भवति अतः स्वातन्त्र्येण प्रयोगं नार्हति कृदन्तेभ्यः सुप् प्रत्ययानां योजने सुबन्तरूपं सिद्ध्यति यत् प्रयोक्तुं शक्यते इति आदौ ज्ञातम् तर्हि के एते कृत् प्रत्ययाः इति चेत् कृत् इति संज्ञा पाणिनिना दत्ता तया संज्ञया केचन प्रत्ययाः विधीयन्ते प्रायेण शतोत्तरं त्रिंशद्वा चत्वारिंशद्वा प्रत्ययाः सन्ति ये कृत् इति कथ्यन्ते सर्वेपि एते प्रत्ययाः धातुभ्यः परतः भवन्ति किमर्थम् एतेषां प्रत्ययानाम् उपयोगः इति चेत् विशिष्टस्य अर्थस्य बोधनार्थम् कर्ता कर्म करणम् इत्यादीनि कारकाणि कृत्प्रत्ययैः बोध्यन्ते क्रिया बोध्यते कालः पौनःपुन्यं विधिः इत्येवं बहुविधाः अर्थाः कृदन्तशब्दैः बोध्यन्ते कृत् प्रत्ययानां योजनेन प्रातिपदिकं जायते प्रातिपदिकस्य सुबन्तरूपेण प्रयोगः क्रियते तत्र प्रत्ययद्वयम् अस्माभिः अधीतमस्ति प्रथमः आसीत् ल्युट् इति प्रत्ययः द्वितीयश्च अनीयर् प्रत्ययः आदौ ल्युट् प्रत्ययस्य विषये संक्षेपेण पश्यामः ल्युट् प्रत्ययः प्रयोगे अन इति रूपं प्राप्नोति अतः पदस्य अन्ते श्रवणं मननं करणं हरणम् इत्यादि यत्र अन इति श्रूयते सः ल्युट् प्रत्ययान्तः शब्दः इति अभिज्ञातुं शक्यते सः मुख्यतया भावार्थकः प्रत्ययः अर्थात् क्रियां बोधयति अन्येपि केचन अर्थाः स्युः किन्तु प्रधानः अर्थः ल्युट् प्रत्ययस्य अयमेव अयं सामान्यः प्रत्ययः अर्थात् सर्वेभ्यः धातुभ्यः क्रियां क्रिया इत्यर्थे अयं प्रत्ययः भवति रूपौ सिद्धौ केचन अंशाः ज्ञातव्याः अन इत्यत्र नकारः अस्ति तस्य नकारस्य केषुचिद् रूपेषु णत्वं भवति अर्थात् न इति श्रूयते करण हरण इत्यादिषु धातौ रेफः षकारः ऋकारो वा अस्ति चेत् अस्य णत्वस्य सम्भवः तत्र णत्वस्य नियमः कः इत्यपि अस्माभिः ज्ञातम् रेफः षकारः ऋकारो वा अस्ति ततः परं नकारः साक्षात् अस्ति चेत् णत्वं भवति स्वराः सन्ति चेदपि भवति चिन्ता नास्ति यथा कर ण इति अथवा पेषण इति मध्ये अन्यानि व्यञ्जनानि यदि भवन्ति तर्हि तानि व्यञ्जनानि यदि कवर्ग पवर्ग ह य व इत्येतेषु अन्तर्भवन्ति तर्हि णत्वं भवति यथा क्रयण इत्यत्र रेफनकारयोः मध्ये यकारः अस्ति क्षेपण इत्यत्र षकारनकारयोः मध्ये पकारः अस्ति एवम् अस्ति चेदपि णत्वं भवति अन्यानि व्यञ्जनानि सन्ति चेत् यथा अर्जन इत्यत्र अर् रेफात् परं जकारः अस्ति एवम् अन्यानि व्यञ्जनानि कवर्ग पवर्ग ह य व इत्येतान् वर्णान् विहाय अन्यानि व्यञ्जनानि सन्ति चेत् णत्वं न भवति इति ज्ञातव्यम् पुनश्च रूपसिद्धिः कथं भवति इत्यपि दृष्टवन्तः कीदृशेभ्यः धातुभ्यः कथं ल्युट् प्रत्ययान्तस्य रूपस्य निष्पत्तिः तत्र प्रायेण गुणः भवति इकारान्तानां वर्णानाम् अयन इति श्रूयते एवम् उकारान्तानाम् अवन इति ऋकारान्तानाम् अरण इति उपधायाम् अर्थात् उपान्तिमः वर्णः इकारः चेत् एकारः भवति यथा लिख लेखन क्षिप क्षेपण इति उकारः ह्रस्वः उकारः अथवा लघुः उकारः उपान्तिमः वर्णः चेत् तत्रापि ओकारः भवति यथा मुद् मोदन नुद् नोदन इत्यादि ऋकारः उपान्तिमः वर्णः चेदपि तत्र गुणः नाम अर् इति भवति वृत् वर्तन वृध् वर्धन इत्यादि एकारान्तः ऐकारान्तः ओकारान्तः औकारान्तो वा अस्ति चेत् आकारः भवति तेषां यथा ध्यै ध्यान गै गान इत्यादि अन्येषां धातूनां तु केवलम् अन इत्यस्य योजनेन रूपं सिद्ध्यति एवं सर्वेभ्यः धातुभ्यः ल्युट् प्रत्ययान्तं रूपं कथं प्राप्तुं शक्नुमः इति ज्ञातवन्तः ल्युडन्तं प्रातिपदिकम् अकारान्तं नपुंसकलिङ्गं च भवति सर्वदा नपुंसकलिङ्गे एव प्रयोगः ह्रस्वाकारान्तं भवति फलशब्दवत् अतः गमनं गमने गमनानि गमनं गमने गमनानि गमनेन गमनाभ्यां गमनैः इत्यादीनि सर्वासु विभक्तिषु वचनेषु च रूपाणि सम्भवन्ति तासां प्रयोगः कथं करणीयः इत्यपि अस्माभिः अवगतम् द्वितीयः प्रत्ययः आसीत् अनीयर् इति प्रत्ययः प्रयोगे अनीय इति श्रूयते विध्यादिषु अर्थेषु अयं प्रत्ययः सामान्यतः विधिः नाम आर्डर् इत्यर्थः कामचारः अर्थात् इट्स् अ सजेशन् कर्तुं शक्यते अथवा न इत्येवं प्राप्तकालः क्रियायाः कालः प्राप्तः इत्येवमर्थः अर्हार्थः किमपि कार्यम् अथवा कर्तुं योग्यम् अर्हम् इत्यर्थे सामान्यतः एतेषु अर्थेषु अस्य प्रत्ययस्य प्रयोगः अथवा शक्यम् इत्यर्थे अपि सो द त्री मोस्ट् कामन् मीनिङ्ग्स् इन् विच् इट् इस् यूस्ड् इस् वन् इस् विधि द अदर् इस् द कामचार एण्ड् अगेन् अर्ह अण्ड् शक्य नाट् त्री सारी फोर् सो दीस् आर् द फोर् कामन् मीनिङ्ग्स् इन् विच् वी यूजुवलि यूस् अनियर् सो आल् दीस् आर् कन्वेड् by any usage of aniyar. Anye vishishtaha arthaha kadachid bhavanti, yatha snaniyam churnam ityadishu, kintu sarvatra na bhavanti, ete arthaha tu sarvatra bhavitum arhanti, vivaksham ashritya, prasangam ashritya, kaha arthaha iti avagantavyaha bhavati. Rupasiddhihi prayena ljudantena rupena samanaritya bhavati. अत्रापि नकारः अस्ति रेफः शकारः ऋकारो वा अस्ति चेत् णत्वस्य सम्भवः अस्ति यत्र यथा ल्युडन्तस्य रूपं तथैव अनीयप्रत्ययान्तस्य रूपमपि निष्पाद्यते अस्य विशेषः अनीयर प्रत्ययान्तस्य त्रिषु लिङ्गेषु अपि रूपाणि सम्भवन्ति, पुल्लिङ्गे, स्त्रीलिङ्गे एवं नपुंसकलिङ्गे. अकारान्तं पुल्लिङ्गम्, आकारान्तं स्त्रीलिङ्गम्, अकारान्तं नपुंसकलिङ्गं च भवति. सो पठनीयः, पठनीया, पठनीयम्. लेखनीयः, लेखनीया, लेखनीयम्. कुत्र कस्य लिङ्गस्य प्रयोगः इति चेत् कर्मपदस्य लिङ्गम् अनुसृत्य प्रयोगः भवति. पाठः पठनीयः, कथा पठनीया, पुस्तकं पठनीयम् इत्येवं कर्मपदस्य लिङ्गम् अनुसृत्य त्रयाणामपि लिङ्गानां प्रयोगः भवति. विभक्तिः कथं भवति इति विषये सामान्यतः वयं यदा प्रयोगं कुर्मः तदा अनीयर् प्रत्ययान्तं प्रथमा विभक्तौ भवति, कर्मपदं प्रथमा विभक्तौ भवति, कर्तृपदं तृतीया विभक्तौ अथवा षष्ठी विभक्तौ भवति. यथा मया पाठः पठनीयः, मया शाला गमनीया इत्यादि, अथवा मम पाठः पठनीयः, मम कार्यं करणीयम् इति षष्ठी विभक्तिः अपि युज्यते. सामान्यतः तृतीया उपयुज्यते इति नियमः. मया पाठं पठनीयम् इत्यादयः प्रयोगाः दोषाय. द मोस्ट् कामन् एरर् इन् अनियर् ईस् यूसिङ्ग् द्वितीया विभक्ति फार् द कर्मपद. बिकास् अहं पाठं पठामि इति प्रयोगे द्वितीया विभक्तिः भवति, किन्तु मया पाठं पठनीयम् इति असाधुः. मया पाठः पठनीयः इत्येव प्रयोगः करणीयः. किन्तु अन्यासु विभक्तिषु अपि प्रयोगः भवति. क्षालनीयं पात्रम् आनय, पठनीयस्य पाठस्य अभ्यासः इत्येवं कर्मपदस्य विशेषणत्वेन अन्यासु विभक्तिषु प्रयोगः अपि भवति. कथं प्रयोगः करणीयः इत्यादि सर्वम् अस्माभिः ज्ञातम्. अद्य तृतीयं प्रत्ययम् आरभामहे. सो बिफोर् दट् इफ् यु हेव् एनी स्पेसिफिक् क्वेश्चन्स् रिगार्डिङ्ग् वाट् वि डिड् सो फार्, सो टिल् अनियर्, especially about the last class or about the exercise given for the last class, please ask. Okay. There's a question here. I did not understand. Maithili over there.
Yeah, there was one question. There's
Which is this question?
Kartripadam. Yeah, I am just trying to locate it. The Kartripadam was in Prathama Vibhakti, where Buddhimati, Kim Kim, I'm just trying to still locate it on my computer. Buddhimati Kim Kim Karaniyaha. In that, the Buddhimati was in first Vibhakti. I
Where is it?
I just look at it and get back to you. I'm sorry, I should have looked.
Okay, no problem. Yeah. Okay. एकः प्रश्नः गतवर्गेपि आसीत् इति भावयामि. इफ् ऐ से मम पुस्तकं पठनीयं, can it be understood both as I have to read the book and also my book has to be read by somebody? Aam, ubhayathapi bhavitum arhati. Prasangam ashritya arthaha avagantavyah. I say mama pustakam pathaniyam. Mama ityasya pustakena anvayahava, pathaniyena anvayahava iti prasangavashadeva jnayate. Is it the book has to be read by me or my book has to be read anyena kena chita mama pustakam pathaniyam iti? उभयथापि अर्थः भवितुम् अर्हति. प्रसङ्गमाश्रित्य विवक्षामाश्रित्य अवगन्तव्यः. अन्यः प्रश्नः णत्वस्य विषये. वै इस् इन् द णत्व रूल् अप्लैड् वेन् इट् इस् विच् அமென். யதி மூர்தன்ய ஷகாரஹ, ஷகாரஹ விவிதஹ பவதி, ஏகஹ சங்கரஹ இத்யத்ர அதவா சிவஹ இத்யத்ர யஹ ஷகாரஹ ஸஹ அஸ்மாபிஹி. சோ வி ரெஃபர் டு அஸ் த தாலவ்ய ஷகார, யதோஹி தாலுனா தஸ்ய உச்சாரணம். த அதர் விச் வி யூஸ் இன் சே ஷண்முக இஸ் த மூர்தன்ய ஷகார. சோ மூர்தன்ய ஷகாரஹ பவதி சேத் ணத்வம் பவதி பவத்யேவ. சோ த செரெப்ரல் ஷ, சோ த ணத்வ ரூல் டஸ் அப்ளை ஃபார் செரெப்ரல் ஷகார. குதோ ந பவதி இதி பிரஷ்ன ஏவ ந பவதி, நிச்சயேன பவதி ணத்வம் ஷகாரஹ சேத். அன்யஹ ஷகாரஹ தாலவ்யஷ்சேத் தத்ர ந பவதி. மோகன் மகோதய பிரஷ்னஹ அஸ்தி வா?
ஹரி ஓம். சர்வதா கர்ம பதம் பிரதமா விபக்தௌ பவதி வா? சர்வதா
ந பவதி. தடேவ கர்ம பதம் அன்யஸ்யாம் விபக்தௌ அஸ்தி சேத் அனியர் ப்ரத்யய அந்தம் அபி அன்யஸ்யாம் விபக்தௌ பவதி. யதா மானனீயாய விப்ராய தேஹி இது எத்திர பிரயோகம், தத்திர விப்ராய இது சதுர்த்தியம் அஸ்தி, அதஹ அனியர் ப்ரத்யயாந்தம் அபி சதுர்த்தியம். சர்வத்ர கர்மபதஸ்ய விசேஷணத்வேன பிரயோகம் பவதி. கர்மபதம் யஸ்யாம் விபக்தௌ அஸ்தி தஸ்யாம் விபக்தௌ பவதி. சாமான்ய பிரயோகே உபயமபி பிரதமா விபக்தௌ பவதி இதி. அன்யா க்ரியா காபி நோபயுஜ்யதே சேத், சோ இஃப் வி ஆர் யூசிங் த அனியர் இட் செல்ஃப் ஆஸ் த க்ரியா அண்ட் தெர் இஸ் நோ அதர் க்ரியா விச் வி ஆர் யூசிங், தென் இட் இஸ் இன் பிரதமா விபக்தயஹ. யதா மயா பாடஹ படனீயஹ, மயா வஸ்திரம் க்ஷாலனீயம், சோ வி ஆர் யூசிங் தட் ஆஸ் த மெயின் க்ரியாபத, ததா பிரதமா விபக்தௌ பவதி. சோ அன்யத் க்ரியாபதம் அன்யத் திங்கந்தம் அஸ்தி சேத் அஸ்ய விபக்தி பரிவர்த்தியதே. யதா சாலனீயானி பாத்ராணி ஆனய மானனீயாய விப்ராய தேஹி, சோ யத்ர திங்கந்தம் அன்யத் திங்கந்தம் அன்யா க்ரியா பிரயுஜ்யதே தத்ர அஸ்ய விபக்தி பரிவர்த்தியதே. யதி அன்யா க்ரியா நாஸ்தி, அனியர் ப்ரத்யயாந்தமேவ வாக்யஸ்ய முக்ய க்ரியா ரூபேண உபயுஜ்யதே, தத்ர து பிரதமா விபக்தௌ பவதி, கர்மபதமபி பிரதமா விபக்தௌ ஏவ பவதி. ரமா சுந்தரராஜன் சாரி பிரஷ்னா அஸ்தி வா? யூ ஹவ் டு அன்மியூட் யுவர் செல்ஃப், யூ ஆர் மியூட்டன்ட், சோ இஃப் யூ ஹவ் அ க்வெஸ்சன் யூ கேன் அன்மியூட் யுவர் செல்ஃப் அண்ட் ஆஸ்க். No? Okay. வெங்கடராமன் ஐயர் மகோதய
நமஸ்தே மாண்ய.
வதத்து
இதானீம் இதானீம் பிரஷ்னம்.
ஐ திங்க் தி லாஸ்ட்
This is regarding the Subhashitam and question 3, Akhanash and Manistak and Grigal.
Matimata is Tritiya. Matimata.
Oh,
Matiman is Prathama Vibhakti. So,
okay.
Buddhimata, Matimata, iti Tritiya Vibhakti hai Prayoga.
Oh, okay. Dhanyavada.
Yeah. Matimata Purushena Kim Kim Na Prakashaniyam.
Yes.
Oh, okay. Thank you. அஸ்து தர்ஹி திருத்தியம் பிரத்யம் பசியாமஹ. நுல் இதி பிரத்யயஹ, ஆதௌ த்ருஷ்டஹ ல்யுட் பிரத்யயஹ பாவார்த்தகஹ அர்த்தாத் க்ரியாம் போதயதி. த்விதீயஹ அனியர் பிரத்யயஹ கர்ம बोधयति अयम् प्रत्ययस्तु प्रायेण प्रायेण अस्मिन् अर्थे कर्तारं बोधयति कर्तृवाचकः प्रत्ययः सो दिस् इस् अ प्रत्यय विच् रेफर्स् टु द पर्सन् हू पर्फार्म्स् द एक्शन् आदौ कांश्चन प्रयोगान् पश्यामः गुरवस्सन्ति बहवः शिष्यवित्तापहारकाः दुर्लभस्स गुरुर्लोके शिष्यचित्तापहारकः इति कश्चन श्लोकः बहवः गुरवः सन्ति कीदृशाः शिष्याणां वित्तस्य नाम धनस्य अपहारकाः ये धनम् अपहरन्ति अर्थात् बहुधा धनं स्वीकुर्वन्ति दुर्लभः सः गुरुः लोके किन्तु तादृशः गुरुः विरलः यः शिष्यचित्तापहारकः चित्तं नाम मनः यः शिष्याणां छात्राणां मनः अपहरति सो ही हू केन् केप्चर् द मैण्ड्स् आर् द इमेजिनेशन् आफ् स्टूडेण्ट्स् इस् रेर् सो देर् आर् मेनी हू टेक् अवे देर् वेल्त् देट् इस् हू कलेक्ट् मच् आफ् देर् मनी एस् फीस् आर् अदर्वैस् बट् दोस् आर् इण्डीड् रेर् हू केन् केप्चर् देर् मैण्ड् आर् देर् हार्ट् सो गुरवः सन्ति बहवः शिष्यवित्तापहारकाः दुर्लभस्य गुरुर्लोके शिष्यचित्तापहारकः तत्र उभयत्र अपहारकाः अपहारकः इत्यस्ति यः अपहरति सो ही हू टेक्स् अवे ही हू केप्चर्स् इस् अपहारकः द्वितीया काचिदुक्तिः लुब्धानां याचकः शत्रुः मूर्खाणां बोधको रिपुः सो लुब्धानां ये अत्यन्तं लुब्धाः लुब्धः इस् अ मैसर् यः धनं व्ययीकर्तुं नेच्छति तस्य कः शत्रुः इति चेत् याचकः यः याच्यां करोति किमपि ददातु इति पृच्छति तर्हि दातव्यं भवति इति कारणेन लुब्धानां याचकः शत्रुः मूर्खाणां बोधको रिपुः ये तु स्वभावतः मूर्खाः तेषां बोधकः यः तान् बोधयितुं प्रयतते अथवा उपदेशं ददाति स एव शत्रुः इत्यर्थः सो याचकः बोधकः इति पदद्वयं यः याचते सः याचकः यः बोधयति सः बोधकः सो हारकः अथवा अपहारकः याचकः बोधकः इत्येतानि पदानि द्रष्टव्यानि अन्यः श्लोकः अस्ति अच्युताष्टकम् इति प्रसिद्धं शङ्कराचार्यैः रचितं कृष्णस्य विषये धेनुकारिष्टः अनिष्टकृद्वेषिणां केशिः कंसहृद् वंशिकावादकः पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा इति श्लोकः सो धेनुकारिष्टः धेनुकः नाम कश्चित् असुरः अरिष्टः नाम सः यः पीडयति तादृशः तं हतवान् द्वेषिणाम् अनिष्टकृत् ये शत्रवः तेषाम् अनिष्टं करोति केशिः केशिः इति अन्यः कश्चित् असुरः तं हतवान् कंसहृत् कंसस्य नाशकः वंशिकावादकः वंशिका नाम वेणुः सो वंशिकायाः वादकः यः वेणुं वादयति पूतनाकोपकः सो पूतनायां यः कोपं करोति पूतनायाः विषये यस्य कोपः अस्ति सूरजाखेलनः सूरजा नाम यमुना नदी सो यमुनायां खेलति अथवा क्रीडति बालगोपालकः गाः पालयति बालः गोपालकः माम् सर्वदा पातु इति श्लोकस्य सरलः अर्थः कृष्णस्य विषये तत्र वंशिकावादकः सो यः वंशिकां वादयति पूतनाकोपकः यः पूतनायां कुप्यति बालगोपालकः यः गाः पालयति वादकः कोपकः पालकः इत्येतानि पदानि नुल् प्रत्ययान्तानि Excuse me just one moment, please. एवं वादकः कोपकः पालकः गोपालकः इत्येते सर्वेपि शब्दाः नुल् प्रत्ययान्ताः. लेखकः पाचकः नायकः दर्शकः पीडकः भक्षकः रक्षकः अर्चकः छेदकः पूजकः इत्येतानि सर्वाणि पदानि पठन्तु. अत्र यत्र अक इति श्रूयते स एव नुल् प्रत्ययः. अयं कर्त्रर्थकः प्रत्ययः, अर्थात् यः क्रियां करोति. सो यः लिखति, लेखनकार्यं करोति, सः लेखकः. यः पचति, सः पाचकः. यः नयति, सः नायकः. यः पश्यति, सः दर्शकः. यः पीडयति, सः पीडकः. यः भक्षयति, सः भक्षकः. यः रक्षति, सः रक्षकः. यः अर्चयति, सः अर्चकः. यः छिनत्ति, सः छेदकः. यः पूजयति, सः पूजकः. इत्येवं क्रियायाः कर्तारं बोधयति अक इत्येषः प्रत्ययः. सो अयं प्रत्ययः एव नुल् इत्युच्यते. सो नुल् इत्यत्र वस्तुतः वु इति प्रत्ययः. वु इत्यस्य स्थाने अक इति आदेशः. यथा प्रथमः प्रत्ययः दृष्टः ल्युट्, तत्र यु इत्यस्य स्थाने अन इत्यादेशः. एवं वु इत्यस्य स्थाने अक इति. सो अयं सामान्यतः भवति, वेरी कामन् फीचर्. युवोर् अनाकौ इत्येव सूत्रं. यु वु इत्येतयोः अन अक इति आदेशः भवति. सो यत्र यत्र प्रत्यये यु भवति, ल्युट्, ल्युः, यु युच् इत्येवं, यत्र यत्र प्रत्यये यु इति श्रूयते तत्र रूपे अन इति भवति. एवं यत्र यत्र वु, नुवुल् अस्ति, वुञ् अस्ति, अन्येपि सन्ति प्रत्ययाः, सो सर्वत्र अक इति आदेशः भवति. सो किमर्थं भवति इत्यादि यदा पाणिनीयव्याकरणस्य अध्ययनं क्रियते तदा ज्ञायते. सो देर् इस् अ स्पेसिफिक् पर्पस् आन् वै द रीप्लेस्मेण्ट् हेपन्स् आन् वै देर् आर् सम् एक्स्ट्रा लेटर्स्. सो लेट्स् नाट् गो इन् टु दिस् नौ. इदानीं तु एतद् ज्ञातव्यं, प्रत्ययस्य नाम नुल्. सो इफ् यु लुक् फार् एनी थियरी यु विल् नाट् फैण्ड् अक एनिवेर्, because aka is not a unique identifier. Bahushu pratyayeshu aka iti bhavati. So ayam pratyayah tu nul iti pratyayah. Rupe tu aka ityeva shruyate. So sarvebhyaha dhatubhyaha ayam pratyayah bhavati. So this is also a general pratyaya like the previous two. So yatha lyut, यथा च अनीयस् एवं नुल् प्रत्ययः अपि सर्वेभ्यः धातुभ्यः कर्त्रर्थे भवति. सो अत्र प्रथमः अभ्यासः संयोजयत. सो अत्र पञ्च पात्राणि सन्ति, वयं सर्वं जानीमः देवाः सन्ति, ते किं किं कुर्वन्ति इति. अत्र नुलन्ताः शब्दाः सन्ति, परस्परं योजनं करणीयम्. सुंदरामन महोदय, यू हैव टू अनम्यूट योरसेल्फ.
श्रूयते वा?
हाँ श्रूयते.
शिवः नर्तकः.
शिवः
भीमः
नर्तकः.
नर्तकः भीमः पाचकः. नारदः गायकः. गणपतिः लेखकः. कृष्णः वेणुवादकः.
सम्यक्. शिवः नर्तकः, नृत्यति इत्यर्थः. भीमः पचति, अतः पाचकः. नारदः गायति, अतः गायकः. गणपतिः लिखति, महाभारतं लिखितवान् इति प्रसिद्धिः, अतः लेखकः. कृष्णः वेणुं वादयति, अतः वेणुवादकः. इत्येवम् अक इति अयं प्रत्ययः. द्वितीयः अभ्यासः नुलन्तेन रिक्तस्थानं पूरयत. भगवतः कानिचन विशेषणानि सन्ति, किं किं करोति इति. अतः नुल् प्रत्ययान्तेन शब्देन रिक्तस्थानं, अस्य नुलन्तं रूपं दातव्यम्. सो हिमांशु महोदय,
दुःखनाशकः.
दुःखनाशकः.
भक्तपालकः.
भक्तपालकः.
मुक्तिदायकः.
सम्यक्, मुक्तिदायकः. सो दुःखनाशकः, भक्तपालकः, मुक्तिदायकः. मोहन महोदय,
सज्जन रक्षकः.
सज्जन रक्षकः.
दुष्ट शिक्षकः.
दुष्ट शिक्षकः.
बन्द मोचकः.
सम्यक्, बन्धमोचकः. उत्तमम्. सो बन्धमोचकः, दुःखनाशकः, भक्तपालकः, मुक्तिदायकः, सज्जनरक्षकः, दुष्टशिक्षकः, बन्धमोचकः. सो एतानि पदानि, नाशकः, पालकः, दायकः, रक्षकः, शिक्षकः, मोचकः इत्येतानि पदानि नुल् प्रत्ययान्तानि. ओके, सो नुल् इस् अ वेरी कामन् प्रत्यय अण्ड् इट् इस् अ फेर्ली ईजी प्रत्यय आल्सो. सो वि यूस् इट् वेरी आफन् इन् द लाङ्ग्वेज्. सो कथं रूपाणि भवन्ति, एज़् यू केन् सी, कदाचित् दा इति धातुः दायकः इति भवति, मुच् धातुः मोचकः इति भवति. सो कथं रूपाणि सिद्ध्यन्ति, सो हौ डु वि गेट् द नुलन्त फार्म्स् फार् द डिफरेण्ट् धातुस् इति पश्यामः आदौ. सो द मेन् पार्ट् इन् नुलन्त इस् नोयिङ्ग् दिस् द फार्म्स् फार् द डिफरेण्ट् धातुस् बिकास् द यूसेज् आफ् नुल् इस् वेरि वेरि ईज़ी. ओके, अत्र சந்தேகஸ்ய பிராயேண அவகாசஹ ஏவ ந பவதி. கதம் பிரயோகஹ கர்த்தவ்யஹ இதி ஞாயதே ஏவ. ரூபம் கதம் பவதி, கஸ்ய தாதோஹ கிம் ரூபம் இத்யேவ பிரதானம் பவதி நூல் பிரத்யய. ஆகாராந்தாஹ தாதவஹ யத்ர பவந்தி தத்ர ஆயக இதி ஶ்ருயதே. அர்த்தாத் தாதௌ ஆ அஸ்தி, அக இதி பிரத்யயஹ, மத்யே ஏகஹ யகாரஹ பவதி. தா தாயகஹ, தா தாயகஹ, க்யா க்யாயகஹ, பா பாயகஹ, மா மாயகஹ. ஸோ சர்வத்ர தாதோஹ பிரத்யயஸ்ய மத்யே ஏகஹ யகாரஹ பவதி. ஏவம் ஏஜந்தாஹ, ஏச் நாம ஏ ஓ ஐ ஔ. ஸோ ஏதந்தாஹ தாதவஹ சேத் யதா லுட் பிரத்யய அதவா நியர் ததா ஆகாராந்தாஹ பவந்தி, ததஹ புனஹ யகாரஹ பவதி, தத்ராபி ஆயக இத்யேவ ஶ்ருயதே. கை கா இதி பவதி, கா அக காயகஹ. ஜெய் த்யா த்யாயகஹ. ஹுவே ஹ்வா ஹ்வாயகஹ. த்ரை த்ரா த்ராயகஹ. ஸோ சா சாயகஹ. ஏவம் ஏஜந்தானாம் தாதூனாம் அபி ஆயக இத்யேவ ஶ்ருயதே. ஸோ ததாதி கிவ்ஸ் இதி தாயகஹ. ததாதி ஸோ தா தாரண போஷணயோஹ. ஸோ இதர் டு வேர் ஆர் டு நரிஷ் சம்திங், நர்ச்சர் சம்திங், தாயகஹ. ஸோ க்யா பிரகதனே, க்யா இஸ் டு டெல், க்யாயகஹ. பா பானே அத்தவா ரக்ஷணே. ஸோ பிபதி அத்தவா பாதி, ரக்ஷதி பிபதி இதிவா. ஸோ தத்ர பாயகஹ இதி ரூபம். ஸோ மாங் மானே, மா இஸ் டு மெஷர், மாயகஹ. கை காயதி டு சிங், காயகஹ. த்யை சிந்தாயாம் டு மெடிடேட் ஆர் டு திங்க், ஸோ த்யாயகஹ. ஹ்வே ஆஹ்வானம் டு இன்வைட், ஸோ ஹ்வாயகஹ. த்ரை த்ராணே, த்ராணம் நாம ரக்ஷணம் இத்யர்த்தஹ. ஸோ த்ராயகஹ, ஸோ அந்தகர்மணி இத்யுச்யதே, ஆர் இட் இஸ் டு பியர்ஸ் சம்திங், சேதனம் இத்யர்த்தஹ. ஸோ சாயகஹ, ஸோ சாயகஹ நாம ஷரஹ, பாணஹ, யஹ சேதனம் கரோதி ஸஹ சாயகஹ. ஸோ ஆகாராந்தானாம் தாதூனாம் ஏவம் ஏஜந்தானாம் தாதூனாம் ஆயக இதி ஶ்ருயதே. So that is the first set. Ikarantaha ikarantaha dhatavaschet tesham api ayaka ityeva bhavati. Okay, so prakriya bhinna, how do we get this aya is different in case of ikaranta and ikaranta, kintu atra api rupe ayaka ityeva shruyate. Okay. சி தாது சாயக. சோ ஜி ஜாயக. க்ஷி க்ஷாயக. ஸ்ரீ ஸ்ராயக. ஹ்ரஸ்வைகாரந்த ஆயக இதி ஶ்ருயதே. நீ நாயக. க்ரீ க்ராயக. பீ பாயக. லீ லாயகஹ. ஸோ ஏவம் இகாராந்தஹ அதவா இகாராந்தஹ சேதபி ஆயக இதி பவதி. ஸோ ஆக்சுவலி த இ ஆர் த இ கெட்ஸ் கன்வெர்டெட் டு ஐ அண்ட் தென் த ஐ பிகம்ஸ் ஆயி. ஸோ தட் இஸ் ஹவ் வி கெட் த ஆயக. அத்ராபி ஆயக இத்யேவ ஶ்ருயதே. ஸோ ஆகாராந்தாஹ ஏஜந்தாஹ இகாராந்தாஹ ஈகாராந்தாஷ்ச. ஸோ சர்வேஷாம் தாதூனாம் ரூபே நுலந்தே ரூபே ஆயக இதி ஶ்ருயதே. ஓகே, ஸோ கிஞ்சித் அபியாசம் குர்மஹ. க்ரியானுகுணம் நுலந்தம் ரூபம் வதத. யதா யஹ ஆனந்தம் ததாதி ஸஹ கஹ இதி வக்தவ்யம். ஹர்மந்தர் சிங் மஹோதய.
யஹ ஆனந்தம் ததாதி ஸஹ ஆனந்ததாயக
ஆனந்ததாயகஹ. தா தாதுஹ தாயகஹ ஆனந்ததாயகஹ.
யஹ தண்டம் வித்தத்தே ஸஹ.
தா தாதுஹ விதா வி உபசர்கஹ.
தண்ட விதாயகஹ.
சம்யக். தண்ட விதாயகஹ. யஹ தண்டம் விதத்தே ஸஹ தண்ட விதாயகஹ. சம்யக். சேஷப்ரியா.
யஹ சாமகாயதி ஸஹ சாமகாயகஹ.
சாமகாயகஹ.
யஹ ப்ரஹ்ம த்யாயதி ஸஹ ப்ரஹ்ம த்யாயகஹ.
ப்ரஹ்ம த்யாயகஹ. சோ கை தாதுஹ ததா த்யை தாதுஹ. காயகஹ த்யாயகஹ இதி ரூபம் பவதி. வெங்கடராமன் ஐயர் மகோதய.
யஹ பக்தான் த்ராயதே ஸஹ பக்தத்ராயகஹ.
பக்தத்ராயகஹ. So he who protects the bhaktas. Trayi dhatuho trayakaha.
Yaha ganam nayati saha gana nayakaha.
Gana nayakaha. Nayati iti nayakaha. He who leads or he who takes the group ahead is gana nayakaha. Ni dhatuho nayakaha iti rupam.
யஹ ஸ்ருதிம் ஸ்ருதிம் விக்ரீணாதி ஸஹ ஸ்ருதி ஸ்ருதி விக்ரீண
க்ரீ தாது
ராயத தாது க்ரியகஹ.
நீ நாயகஹ. க்ரீ
க்ராயகஹ.
விக்ரீ
விக்ராயகஹ.
சம்யக். ஸ்ருதி விக்ராயகஹ. இட்ஸ் எ வெரி ஸ்பெஷல் யூசேஜ் விச் இஸ் ஃபவுண்ட் இன் த மகாபாரதே. ஸ்ருதி நாம வேதஹ. வேதான் விக்ரீணாதி பாபிஷ்டாஹ இதி கதாசித் உச்யதே விதுரேண. தத்ர உச்யதே ஸ்ருதி விக்ராயகஹ. யஹ ஸ்ருதிம் நாம வேதம் விக்ரீணாதி அர்த்தாத் தனம் ஸ்வீகிருத்ய வேதம் பாடயதி ஸஹ ஸ்ருதி விக்ராயகஹ. ஸ்ருதிம் விக்ரீணாதி. ஹி ஹு செல்ஸ் வேத ஆர் ஹி ஹு செல்ஸ் நாலெட்ஜ் இஸ் ஸ்ருதி விக்ராயக. சோ நீ நாயக. க்ரீ க்ராயக. ராவ் மோனே.
ஸ்ருதே வா. யஹ மத்யம் பிபதி ஸஹ மத்ய பாயகஹ.
மத்ய பாயகஹ.
மத்ய பாயகஹ.
மத்ய பாயகஹ.
மத்ய பாயகஹ. யஹ புஷ்பாணி சினோதி ஸஹ புஷ்ப சா புஷ்ப சாயகஹ.
புஷ்ப சாயகஹ. சோ புஷ்பாணி சினோதி ஸஹ புஷ்ப சாயகஹ. சம்யக். சோ சினோதி ஹி ஹூ கலெக்ட் ஃப்ளக்ஸ் ஃப்ளவர்ஸ் இஸ் கால்ட் புஷ்ப சாயகஹ. ராஜலட்சுமி டு அன்மியூட் யுவர் செல்ஃப்.
யஹ கதாம் ஆக்யாதி ஸஹ கதா
ஆக்யாயகஹ. ஆகாராந்தானாம் एदन्तानाम् इकारान्तानां च धातूनाम् आयक इति रूपं भवति. सो उकारान्ताः उकारान्ताः धातवश्चेत् आवक इति रूपं भवति. तथा स्तु स्तावकः, यः स्तौति, ही हू प्रेजेस् और् विसैड् स्तोत्र इस् काल्ड् स्तावकः. सो दु दावकः, सो दुनोति, सो ही हू सफर्स् इस् दावकः. नु नौति, बोस् डौन् और् स्तौति इत्येव, नु स्तुतौ इत्येव धातुः. नावकः, सो श्रु श्रावकः. भू भावकः, पू पावकः. लू लावकः, सो भू नाम भवति इति भावकः. पू पुनाति, सो ही हू प्यूरिफैस् इस् पावकः. लू लुनाति इति लावकः, सो ही हू कट्स् इस् काल्ड् लावकः. एवम् उकारान्तानाम् उकारान्तानां धातूनाम् आवक इति भवति. सो द उ आर् उ एक्चुअलि गेट्स् कन्वर्टेड् टु औ एण्ड् देन् बिकम्स् आव. सो यु हाव् आवक. सो लैक् यु हाव् आयक, हियर् इट् इस् आवक. सो अत्र कांश्चन प्रयोगान् पठित्वा अवगच्छामः. नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः इति भगवद्गीतायां. सो पावकः इत्यस्ति. पुनाति इति पावकः. सो पावकशब्दः अग्नौ प्रसिद्धः. सो इवन् दो एनिथिङ्ग् विच् प्यूरिफैस् केन् बि काल्ड् पावक. सो इट् इस् मोस्ट् कामन्लि यूस्ड् फार् अग्नि. पावकशब्दस्य अग्निः इत्यर्थः एव रूढः. सो इट् मीन्स् फयर्. सो स्तावकान् तान् अभिप्रेत्य पृथुर्वैण्यः प्रतापवान् मेघनिह्रादया वाचा प्रहसन् इदमब्रवीत्. सो स्तावकान् पृथुः अब्रवीत् इत्यर्थः. स्तावकान्, सो स्तौति इति स्तावकः, स्तुतिकर्तारः, दोस् हू वर् प्रेसिङ्ग् हिम्, तान् प्रति कश्चित् पृथुः इति कश्चित् राजा, सः अब्रवीत् उक्तवान् इत्यर्थः. सो स्तावकान् स्तौति इति स्तावकः. स्तु स्तावकः. पू पावकः. सो यथा प्राग् वापकः क्षेत्री, पालको लावकस्तथा इत्यस्ति. क्षेत्री कश्चित् यस्य क्षेत्रम् अस्ति, सो अ फार्मर् हू पोसेसस् लेण्ड्, सः किं करोति, प्राग् वापकः, आदौ बीजानि वपति वापकः, ततः पालकः, देन् ही टेक्स् केर् आफ् देम्, अन्ते लावकः. सो लुनाति, नाट् लवति, ऐम् सारी, I don't know, I wrote this sometime. Lunati iti rupam. Lunati iti lavakaha. Nama chedanakarta. He who cuts it down. So this is a very nice shloka. It says, just like a farmer, adau saha bijam vapati, tataha samyak palayati, ante tu lunati, evam eva rupatrayam. Brahma rupena bhagavan srishting karoti, tataha vishnu rupena palayati, पुनश्च रुद्ररूपेण संहरति. सो यथा इति तत्र उदाहरणम्. सो जस्ट् लैक् अ फार्मर्, ही सोस् द सीड्स्, ही टेक्स् केर् एण्ड् देन् ही हिम्सेल्फ् कट्स् डौन्. सो जस्ट् लैक् दट् द फङ्क्षन्स् आफ् द त्रिमूर्तीस्, द सेम् भगवान् इन् द फार्म् आफ् ब्रह्मा ही क्रियेट्स् एण्ड् देन् ही टेक्स् केर् एण्ड् देन् ही हिम्सेल्फ् डेस्ट्राय्स् इति प्रयोगे. सो तत्र वापकः, पालकः, लावकः इति त्रयः अपि नुलन्ताः. So we will see vapakaha later. So daniyam loony iti dhatuhu, loo dhatuhu, lavakaha iti prayogaha. So poo pavakaha, stu stavakaha, loo lavakaha. Ukarantanam dhatunam avaka iti rupam bhavati. So agre rikarantaha, r athava r इति धातोः अन्ते अस्ति चेत् आरक. सो आयक, आवक, आरक. सो डिपेण्डिङ्ग् आन् वाट् इट् इस्. सो इफ् इट् इस् उ, इट् इस् व. So this is common wherever you go. If it is E, you will usually get converted to Yakara. So U becomes Vakara and R becomes Repha. Okay, so that is what we saw in Lute also. So Ayanam, Avanam, Aranam. Right. So Chi Chayanam, Ji Jayanam, you have the Yakara. So Ukarascet Bhu Bhavanam, Shru Shravanam, Vakara hasti. Atra Kr Karanam, Tr Taranam. Iti Repha Bhavati. So there you have the Hraswa Akara. So it becomes Ayana Avana Arana. Atratu Ayana Avaka, Ayaka Avaka Araka. So you have the Dirgha. So Kr Karakaha, Hr Harakaha, Dhr Dharakaha, Smr Smarakaha, Mr Marakaha. Evam R Karanta Namapi Tr Tarakaha, Kr Karakaha, Jr Jarakaha, Gr Garakaha, Athava Galakaha. So we know Gr becomes Girati Athava Gilati. So there is an optional Lakara. So he who swallows, Jate Garakaha, Galakaha, iti upayatha bhavati. So rkarantanam, rkarantanam dhatunam, araka iti shruyate. Okay. So atra riktasthanam purayata. So very, I think, famous phrases. So just yes, Paul, do you want to take this?
Jagadananda Karakaha.
Karakaha. So Jagadananda Karakaha. So a very famous beginning of a very famous song. So Jagadananda Karakaha. So he who gives Ananda for the world. Jagataha Anandam Karoti. Ha. Next.
Bhakta Bhakta Hritap. Bhakta Hritap. Harakaha, sorry.
Harakaha. Bhakta Hrit Tapa Harakaha. So Bhaktanam Hridayasya Tapam Harati. So he who takes away the tapa, the sufferings in the hearts of devotees. Bhakta Hrit Tapa Harakaha.
Bhava Sagara Tarakaha.
So Tarakaha. So, atravastataha, if you are saying bhavasagaram tarati, so he who crosses the bhavasagara, then it will be the devotee himself. Or tarayati, he who helps to cross would be the Lord. Bhavasagara tarakaha, ubhayathapi tarakaha ityeva rupam. So, tarati ityapi tarakaha, tarayati. So, he who crosses and he who helps to cross. So, ubhayathapi taraka ityeva rupam bhavati. So, kr karakaha, hr Harakaha, Tr Tarakaha. Thank you, Paul. So there is a question here. These words are mostly compound words. Yeah, I am using compound words deliberately because I didn't want to bring in the vibhaktis right now. So most of the examples given are either the dhatu alone or as a compounded word without bringing in the other vibhaktis. Vigrihita tayapi prayogaha kartum shakyate tad anantaram pashyamaha. So because I wanted to focus purely on the nulanta. So idanim tu nulantam rupam kim ityeva pashyamaha. Agre vakye katham prayogaha athava katham anyasam vibhaktinam prayogaha iti anantaram pashyamaha. Okay. Du davakaha ityukte kim iti prashnaha. Dunoti. So yaha pidam anubhavati. He who suffers is davakaha. Okay. Anyaha prashnaha asti. श्री निश्चला
नमस्ते महोदय कथं जानीमः अत्र कृ कारकः अस्ति कृ अपि कारकः अस्ति
न ज्ञायते तत् अर्थमनुसृत्येव सो बेस्ड् आन् द मीनिङ्ग् ओन्ली विल् बि एबल् टु नो सो कृ धातु इस् इन् विकरण अर्थ विकरण टु सफर् सो देर् इस् नो वे ऐ मीन् यु केनाट् जस्ट् बै लुकिङ्ग् एट् द फार्म् यु केनाट् टेल् तस्याः प्रश्नः कृ धातोरपि कारकः इत्येव रूपम् एवं कृ धातोरपि कारकः इत्येव रूपम् सो जगदानन्दकारकः इत्यस्ति चेत् तत्र कृ धातुः वा कृ धातुः वा इति कथं ज्ञायते इति प्रश्नः क्वेश्चन् हौ डु वि नो वेदर् इट् इस् कृ आर् कृ द यूस् आफ् वन् थिङ्ग् ऐ मीन् इन् दिस् पर्टिक्युलर् केस् द यूस् आफ् कृ इस् द मोस्ट् कामन् अण्ड् कृ इस् very rarely used as karaka okay very rarely so tena prayena kru dhatu iti gyatum shakyate but generally there is no way yatra evam dhatu dvayasya rupam samanam bhavati tatra gyatum na shakyate so prasanga vashadeva gyatavyam bhavati so you, we will have to know based on the context based on what is being told so in all cases where different dhatus end up having the same forms So, we will not be able to know what it is without knowing the context. Okay. So, next. Oh, sorry, there was one more. I didn't remember this. Okay. Shankha Chakra Gada Dharakaha. So, Dharati iti Dharakaha. So, Dhr becomes Dharakaha. Okay. So, Kr Karakaha, Hr Harakaha. तृ तारकः धृ धारकः इत्येवं ऋकारान्तानां धातूनाम् आरक इति रूपं भवति सो विसा आकारान्ताः एदन्ताः इकारान्ताश्चेत् आयक इति भवति उकारान्तानाम् आवक इति ऋकारान्तानाम् आरक इति भवति सो अग्रिमं पश्यामः ह्रस्वः अकारः उपान्त्यः सो ह्रस्व अकार एस् द पेनल्टिमेट् लेटर् ओके सो द लास्ट् लेटर् बिफोर् द ऐ मीन् द लेटर् बिफोर् द लास्ट् लेटर् हेपन्स् टु बि ह्रस्व अकार सो देन् वि हेव् द अकार बिकम्स् आ okay it is elongated into a yatha path pathakah pach pachakah jap japakah tap tapakah nam namakah so yatra harasvah akarah upantyah okay so the last but one letter so there is tha before tha you have a so cha before it we have a pa before it we have a so ma before it we have a so the penultimate letter is hrasva akara so then it becomes elongated into a so pathakah pachakah japakah tapakah namakah ityevam bhavati okay so unvalantam roopam So again as a compounded word. So Vedam Pathati Saha. Maithili.
Vedam Pathakaha.
Join it as a compound. So that is why I am giving.
Vedapathakaha.
Vedapathakaha. Vedam Pathati. Iti Vedapathakaha.
Mantra Japakaha.
Mantram Japati. मन्त्र जापकः
शाकानि पचति शाकपाचकः
शाकपाचकः सम्यक् सो वेदपाठकः पठ पाठकः जप जापकः पच पाचकः महादेवन् महोदय
अर्थम भक्ति अर्थवाचकः
अर्थवाचकः वच धातुः अतः वाचकः अर्थवाचकः
गृहं विभजति गृह विभाजकः
गृह विभाजकः
वस्त्रं दहति वस्त्रदाहकः
वस्त्रदाहकः सम्यक् सो अर्थाः ज्ञायन्ते इति चिन्तयामि मन्त्रं जपति सो हि हू चाण्ट्स् रिपीट्स् द मन्त्र शाकानि शाकं वेजिटेबल् शाकानि पचति सो हि हू कुक्स् वेजिटेबल्स् अर्थं वक्ति दट् विच् टेल्स् द मीनिङ्ग् सो अर्थवाचकः शब्दः इत्युच्यते सो अ वर्ड् विच् कन्वेज् मीनिङ्ग् गृहविभाजकः सो गृहं विभजति विभजति इस् टु स्प्लिट् सो टु स्प्लिट् अ हौस् सो गृह विभाजकः विभजति इति विभाजकः वस्त्रं दहति दट् विच् बर्न्स् द क्लात् इस् वस्त्रदाहकः सो पठ पाठकः जप जापकः पच पाचकः वच वाचकः भज भाजकः दह दाहकः सो देर् आर् अ फ्यू मोर् हियर् पद्मनाभन्
चर्वकः
चर्व दट् इस् चर्व धातुः चर्वकः
Charvakaha. Oh, okay.
That is exactly the reason why I gave this. Just by looking akara, here it is not the penultimate letter. Okay. Charv. Oh, okay. So there is r and there is v. So the penultimate letter is r and not akara. Ataha okay. a iti na bhavati. So the dirgha happens only when akara is the penultimate letter. So the letter before the last. Okay. But in case of charv, so there is a r v so a is in the second place after the last therefore there is no dirgha trina charvakah
sarve putra tarjakah
tarjakah putram tarjayati iti putra tarjakah so tarj so atrapi r j वर्णद्वयमस्ति अकारानन्तरम् अतः दीर्घः न भवति चोरदण्डकः चोरं दण्डयति सो दण्ड् अकारानन्तरं णकारः डकारः इति वर्णद्वयमस्ति सो इन् सच् धातु वी विल् नाट् हाव् द दीर्घ सो जस्ट् बै लुकिङ्ग् एट् द अकार we should not convert it into a long a so depending on the letter which follows if it's a single letter as in path jap ityadi tatra dirghah bhavati yadi varna dvayam asti akara anantaram dhatau tarhi dirghah na bhavati okay venkateshwaran mahodaya you have muted yourself I think you have to unmute
I am audible madam
yes
annam bhakshayati anna bhakshakah
anna bhakshakah
shatru
badhnati bandh dhatu
शत्रु बध्नाकः
बन्धकः बन्ध धातुः सो बन्धकः शत्रु बन्धकः बिकास् द धातु इस् बन्ध सो तत्र बध्नाति इति भवति किन्तु बन्धकः
दधि मध्नाति
मन्थ धातुः
मध्यधातु दधी मदावकः
मन्थ धातुः
मन्दाकः
मन्थकः
दधि
मन्थकः सो बन्ध बन्धकः मन्थ मन्थकः सो आल् दीस् धातुस् आर् दोस् इन् विच् देर् इस् अ but it is not the penultimate letter. Okay, so there are two consonants after akara. So charv, tarj, dand, bhaksh, bandh, manth. Okay, ataha sarvatra dirghaha nasti. You just join the aka, charvakaha, tarjakaha, dandakaha, bhakshakaha, bandhakaha, manthakaha. Okay, so charvati is to chew, trinam charvati. Okay, so choose trina kad or he is trina charvakaha putram tarjayati. So tarjayati is to scold. Putra tarjakaha chora dandakaha, he who punishes or finds the thief. Chora dandakaha anna bhakshakaha, he who eats anna. Okay, so bhaksh is not penultimate. There is ka and there is sha. It is a samyukta akshara. So there also there are two consonants. Bha, k, sh. So anna bhakshakaha. Shatru bandhakaha, he who captures the enemy. Dadhi manthakaha, he who churns curd. Churning. Mantha is to churn. Mantha vilodane. So dadhi manthakaha. So yatra akaraha. उपान्त्यः तत्र दीर्घः सो पाठकः पठ पाठकः पच पाचकः एट्सेट्रा यत्र तु उपान्त्यः नास्ति तत्र दीर्घः न भवति यु जस्ट् एड् अक एण्ड् यु गेट् द फार्म्स् ओके सो देर् आर् स्टिल् सम् मोर् सो ऐ एम् गिविङ्ग् यु वित् अ क्वशन् देर् विल् बि क्वश्चन्स् वी हेव् नाट् कम्प्लीटेड् दिस् either the forms or the usage of nul. So agrima varge itopi anyesham dhatunam nulantani rupani katham bhavanti kechana vishishtaha dhatavah santi so tesham vishaye agrima varge janimaha. So if you are getting questions on why this is like this and why this is not that, it will be answered in the next class. So hold on to your curiosity. Itopi karaniyam asti, we have not finished the siddhi of nulanta forms. सो सामान्यतः दृष्टम् अग्रिमवर्गे अनुवर्तनं कुर्मः कथम् अन्येषां धातूनां नुलन्तानि रूपाणि भवन्ति कथं तस्य प्रयोगः इति जानीमः अद्य एकेन सुभाषितेन समापयामः परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः इति किञ्चित् सुभाषितम् परीक्षकाः परीक्षणं करोति सो ही हू एक्सामिन्स् ही हू लुक्स् एट् समथिङ्ग् केर्फुलि यत्र देशे परीक्षकाः न सन्ति सो इन् दट् प्लेस् वेर् देर् इस् नो बडी हू विल् एक्सामिन् हू विल् लुक् एट् समथिङ्ग् वित् अन् एक्सामिनिङ्ग् मैण्ड् सो यत्र देशे परीक्षकाः न सन्ति तत्र किं भवति समुद्रजानि रत्नानि न अर्घन्ति अर्घं नाम अर्घति मूल्यं प्राप्नोति इत्यर्थः सो टु बि ट्रीटेड् एज् वेल्युबल् सो ईवन् द ज्युवेल्स् बोर्न् फ्रम् द समुद्र समुद्रात् यानि रत्नानि अत्यन्तम् अमूल्यानि रत्नानि इति वयं वदामः हि से दट् द ज्युवेल्स् वेदर् इट् इस् अ पर्ल् आर् अदर् रूबीस् आर् एनिथिङ्ग् द प्रेशियस् स्टोन्स् ऑब्टेन्ड् फ्रम् द समुद्र we say that they are very valuable kintu kada tesham mulyam bhavati yatra parikshakaah santi ye paashana khandani khandan parikshya ete khandaah amulyaah ete na amulyaah iti vadanti so everything looks like even diamond so when it is mined it looks like a normal stone okay what is required is somebody with the discriminating mind who can distinguish between a stone and something of value yadi parikshakaah na santi tatra deshe samudra jani ratnani api na arghanti mulyam na prapnuvanti even they are treated as if it's worthless. Okay, so that the worth of a jewel lies not in itself, but in somebody who is able to appreciate its value. So parikshaka yatra nasanti deshe narghanti ratnani samudrajani. Udaharanam ekam vadati abhira deshe kila chandrakantam chandrakanta manihi iti kaschit manihi atyantam amulyaha manihi. So it is supposed to be a jewel which when you expose it to chandra in moonlight, it gives out water. Iti kaschit manihi iti uchyate. It's a very valuable stone. So, abhira deshe kila chandra kantam tribhirvaratair vipananti gopaha. So, abhira desha. So, it's a cowherd village. Yatra tasya mulyam najananti tatra gopaha chandra kantam tribhihi varataihi vipananti. So, tasya vipananti nama vikrinanti. So, they sell it. For what? Tribhihi varataihi. So, varata means a kauri. Okay, it's what we call a shell, the seashell. Okay, for three shells, tribhihi varataihi vipananti. It's a very, very valuable stone. But since they do not know the value of that stone, they sell it for three kauris or three shells. That is, it loses its worth when it is in between those who cannot appreciate its value. Parikshaka yatra nasanti deshe narghanti ratnani samudrajani abhira deshe kilachandra kantam tribhirvaratair vipananti gopaha. So, it's just a subhashita which can be applied to many contexts. Say for example, the jewels which are in Sanskrita or in our culture. So, this is probably what we are doing without realizing the value, without understanding their Arghata. Okay. So that they are invaluable, we are giving everything away. Right. So, or we don't even care for those which are in our midst. Kimartham parikshaka yatra nasanti deshe. So asmabhihi parikshakaihi bhavyam. We should develop that attitude of examining and realizing the value of what we have rather than experiencing a sorrow when it is lost. So, yadi parikshakatvam asti, tarhi asmasu sthitanam vastunam kim mulyam iti jnatum shaknumaha. Yadi nasti, tarhi nashyanti vastuni. So, anena adhya patham sthagayamaha. Prashnanam uttaram dasyami. Patasya samaptihi atra asti. So, okay, let's come to the questions. So, if you have any questions, please feel free to ask. Madhyanada Pathaha Atra Samaptaha. So Atra Kechana Prashnaha Santi. Okay. So Ekaha Prashnaha. One who reads and one who teaches will both be called Pathakaha. Yes, in the Nulanta, so Pathati is also Pathakaha and Pathayati is also Pathakaha. So for many of the forms in Nul, we cannot distinguish between the causal form and the original form. Say for example, as we saw, Tarati ityapi Tarakaha, Tarayati ityapi Tarakaha. Okay, he who crosses, he who helps to cross. So Pathati iti Pathakaha, Pathayati ityapi Pathakaha. Okay, so this is because for those who know the grammar, so nich, the pratyaya nich is nith, it has nakara, and nul also has nith, nakara. So the forms, the karyas which are for nich will also happen for nul. Okay, because they share that it, so the forms will be the same. Okay, so you cannot distinguish between the forms unless there is a unless we know the context. It's only based on the context and based on the meaning that we can distinguish. So, nul pratyayante na bhavati. Okay. So, does charvaka has any relation to charvaka? As far as I know, no. Charvaka shabdaha katham nishpannaha iti drashtavyam. But, charvati is to... I I have to see this, but I don't think. No, there is not. So the Charvaka says, Charuhu apata manoramaha lokaha chittakarshakaha iti yavat vakaha. So there the word is vaka. Charu vaka. So he who says that the world which is seen itself is beautiful and there is nothing, no need to look beyond it is a Charvaka. So there is no relation. Okay. So Abhira Deshaha, Abhira is Ghosha Abhira Pallisya Diti Amarakoshaha. So Abhira is something which is used in like Gopalaka as a this thing, that's it. Okay. So it is just for cowherds. So there were a couple of people who asked that. Any other questions? Mohan Mahodaya, Prashna Hastiva.
Yes. This sutra you are referring, you know.
Yes.
Is it possible for you to give the sutra or is it necessary just to have a reference?
I am not, as in my pratigya for this course was not to go into the sutra. Specifically,
okay.
I mean, there is no reason because this course was meant to be the pre-Paninian level. I still mention it, I mean, just for arousing interest. Or because there are people who have studied, I mean, who I know in my own classes have studied the sutra. So, because I will not, I am not getting into the sutras this time because there are many people who do not have an introduction to sutras. Sutra is like a language by itself. You need to know some basics to understand any sutra. So, just by looking at a sutra, you will not understand anything. Just like, I mean, for anything in maths, you will have to know the, you know, the symbols of mathematics. Like you know what a plus means or what a minus means, etc. So similarly, Ashtadhyayi has a language. So there are some things which you should know before we can enter into sutras. So in this course, I will not go into sutras or the meanings of sutras because it is first thing, it is not possible to explain a sutra in detail in the class. And if I don't explain, it will just end up confusing those who do not know the Paninian system. So, but I do mention it in between because those who know can relate to it and can appreciate it. So, that's the only reason I mention. So, maybe in a later course on Kridantas, we will do it according to the sutras. For now, it is only a mention. So, those who already know can refer to it and understand it or don't worry about it, not required. So, even if you do not understand any sutras, I think this class should be fully comprehensible. So that should be fine. Maithili?
So Kridatu also, Yaha Karoti Saha Karakaha. Yaha Karayati Saha Api Karakaha.
Everywhere, yes.
Okay.
Everywhere it will be like, it will be the same, the, you know, the form, the Nijanta form. I mean the nulanta for both the original dhatu and the nich. As far as I know, it's always the same. I don't think it's. There could be a few cases where it's different. I'll have to look up, but mostly it should be the same. Okay, so wherever you take it, it should be the same. So there is no way to distinguish. Okay. Mahadevan Mohanaya.
In the dhatu pata. Dhatartha is mostly given in Lyut. Is that correct?
In Lyut. So,
yes. With Lyane, Tengitarane.
Yes.
Mostly it is Lyut only, right?
Yeah, usually. Because it is the one, I mean, the Dhatapata is trying to give the meaning as an action. So mostly it gives it as Lyut. Or sometimes also as Ktin. So there are other Bhavarthaka Pratyayas. But yeah, Lyut is very often used in Dhatapata. Okay. Any other questions? Yes, Mohan Mahesh, anyaha prashna hasti va?
No, sorry. I did not mean to explain the sutra. Only the reference, the numbers I just asked.
Yeah. No problem.
Okay.
I'll at the end of each pratyaya, I'm giving some sutras which are directly relevant. I give the sutras.
Okay.
But for others, I don't think. I mean, if you need anything, you can either ask me or look it up. That should be fine.
Okay. Thank you.
Okay. I think that's it. So we'll. Venkateshwar Mahodaya, Prashna Hastiva. You are muted. You have to unmute yourself.
This lute as well as near pratyaya, does it not indicate present and future kalas may not be past? Because when you say it must be done, but now or future?
No, it does not. All the three pratyayas which we have seen so far, they do not have any tense indication, that is the kala. There are some krit pratyayas which do indicate the kala, like say ktavatu or kta, but these three do not indicate any kala. So it is just normal in this thing. It could be in any kala, must be done now or later or any time. So similarly, Pachakaha, he who cooked or he who cooks now or he will cook in the future, it does not have the this one. Okay. So in general, so there is no tense in this one. Venkataraman Ayyar Mahodaya, Prashna Hastya. Okay. Sundararaman Mahode, Prashna Hastiva. Nasti. Okay. So, Atra, we'll stop here. Gururev gatir gurumeva bhaje gurunaiva sahasmi namo gurave na guroh paramam shishurasmi guror matirasti gurau mama pahi guru. Dhanyavadah.